इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी। अथ वार्ताः। दशमं अन्ताराष्ट्रिय योग दिवसः सम्पूर्णे विश्वे परिपाल्यते। प्रमुख कार्यक्रमः जम्मू कश्मीरस्य श्रीनगरस्य शेरे कश्मीर अन्ताराष्ट्रिय सम्मेलन केन्द्रे आयोजयिष्यते। प्रधानमन्त्री नरेन्द्र मोदी श्रीनगरतः अस्य कार्यक्रमस्य नेतृत्वं विधास्यति। आहत्य 7,000 जनाः प्रधानमन्त्रिणा सह डल जलाशय तटे एकत्रिताः भविष्यन्ति। प्रधानमन्त्रिणः नेतृत्वयुते एतस्मिन् कार्यक्रमे जम्मू कश्मीरस्य उपराज्यपालः मनोज सिन्हाः, केन्द्रीयमन्त्री प्रतापराव गणपतराव जाधवः, अन्ये च गणमान्याः जनाः उपस्थिताः भविष्यन्ति। अस्य वर्षस्य योगदिवसस्य शीर्षको वर्तते स्वस्मै समाजाय च योगः इति। अस्य कार्यक्रमस्योद्देश्यं योगाभ्यासद्वारा वैश्विक स्वास्थ्यं कल्याणं च संवर्धयितुं सहस्राधिकं प्रतिभागीनाम् एकत्रीकरणं विद्यते। कार्यक्रमावधौ प्रधानमन्त्री जनसमागममपि सम्बोधयिष्यति, अपि च सामान्य योगसत्रे भागं स्वीकरिष्यति, यस्मिन् शारीरिक मानसिक आध्यात्मिक विकासस्य प्रतिपोषणे योगमहत्वम् उद्घाटयिष्यति। अवधेयं वर्तते यत् प्रधानमन्त्री नरेन्द्र मोदी जम्मू कश्मीरस्य द्विदिवसीय यात्रायाम् अस्ति। श्रीमोदी अत्रावसरे 5,500,000,000,000,000 रूप्यकाणां 84 प्रमुखासां विकास परियोजनानां शिलान्यासम् उद्घाटनं च कृतवान्। राष्ट्रपतिः द्रौपदी मुर्मुः लोकसभाध्यक्षस्य निर्वाचनपर्यन्तम् अध्यक्षपदस्य कर्तव्यं निर्वोढुं भाजपादलस्य लोकसभासदस्यं भर्तृहरि महताबम् अस्थायी लोकसभाध्यक्षरूपेण नियुक्तवती। ह्यः सामाजिक संचार माध्यमे संसदीय कार्यमन्त्री किरेन रिजिजुः अवदत् यत् राष्ट्रपतिः लोकसभायाः सदस्यान् सुरेश कोडिकुन्निल, टीआर बालू, राधामोहन सिंह, फग्गन सिंह कुलस्ते, सुदीप बन्दोपाध्याय इत्येतान् अपि नियुक्तवती, येन ते 18तमायाः लोकसभायाः नवनिर्वाचितानां सदस्यानां कृते अध्यक्षस्य निर्वाचनपर्यन्तं शपथग्रहणस्य समर्थनस्य च कार्ये अस्थायी अध्यक्षस्य साहाय्यं करिष्यन्ति। विश्वविद्यालयानुदानयोगस्य नेट परीक्षाम् अवलम्ब्य केन्द्रीयान्वेषणाभिकरणेन अभियोगः पञ्जीकृतः। शिक्षाविभागस्य सचिवेन प्राप्ताभिशंकायाः आधारे अज्ञात अपराधिनः विरुध्य भारतीय दण्ड संहितायाः अनुच्छेदस्य 20+ ब इत्यस्यान्तर्गतं विषयाः समंकिताः। अवधेयं वर्तते यत् राष्ट्रिय परीक्षाभिकरणद्वारा अस्य मासस्य 18 देशस्य विभिन्नेषु भागेषु व्यावर्तकद्वये परीक्षाः समायोजिताः। बांग्लादेशीया प्रधानमन्त्री शेख हसीना इत्येषा अद्य आरभ्य भारतस्य द्विदिवसीय यात्रां प्रति आयाति। स्वयात्रावधौ प्रधानमन्त्रिणा नरेन्द्र मोदिना सह द्विपक्षीय विचार विमर्शान् अतिरिच्य सा राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया उपराष्ट्रपतिना जगदीप धनखडेन च सह मेलनं करिष्यति। विदेशमन्त्रिणा एस जयशंकरेण सह तस्याः पारस्परिकोपवेशनम् अपि सुनिश्चितम् अस्ति। 18तमः मुम्बई अन्ताराष्ट्रिय चलच्चित्र महोत्सवः अद्य सायंकाले अवसीयते। अस्मिन् वर्षे 61 भाषासु 59 देशानां 14,300 चलच्चित्राणि 7-दिवसीय अस्य कार्यक्रमस्य अन्तर्गतं प्रदर्शितानि। पुरुषाणां 20-प्रतिविंशति क्रिकेट विश्वचषक प्रतिस्पर्धायां भारतेन अफगानिस्तानदलं 47 धावनांकैः पराजितम् इति वार्ताः।